एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। नवरात्रस्य द्वितीय दिवसे अद्य नवसु दुर्गासु द्वितीयायाः ब्रह्मचारिणी देव्यः आराधना विधीयते। अद्य देवीपीठेषु गृहे च पूजास्थले देव्यः ब्रह्मचारिण्यः आह्वानं विधाय विधिपूर्वकं पूजायां विहितायां ब्रह्मतत्त्वं प्राप्तुं शक्यते इति शास्त्रीया मान्यता अस्ति। अस्मिन् दिने आराश्रम विद्यमानेषु शक्तिपीठेषु देव्यः दर्शनाय पूजायै च भक्तजनानां सम्मर्दो विद्यते। अदैव राज्यपक्षतः हनुमद्वार प्रासादे विजयादशमी पूजन गृहे यथाविधि देव्यः ब्रह्मचारिण्यः आराधना विधीयमाना अस्ति। घटस्थापनास्थले दुर्गा सप्तशत्याः देवी भागवतस्य अन्येषां च देवी स्तोत्राणां भक्तिपूर्वकं पाठं विधाय देवी समाराध्यते। नवरात्रस्य प्रथमे दिवसे ह्य हनुमद्वार प्रासादवर्तिनी विजयादशमी गृहे विधिपूर्वकं घटस्थापनां विधाय एवांकुराणां कृते एवः स्थापिताः सन्ति। राष्ट्रपतिना रामचन्द्र पौडेलेन च ह्य शीतल निवासवर्तिनी राष्ट्रपति भवने वैदिक विधिपूर्वकं पूजार्चनां विधाय घटस्थापना पुरस्सरं अंकुराणां कृते यवः उक्तः सन्ति। नेपालेन बंगलादेशाय चत्वारिंशत् मेगावाट मितां विद्युतं विक्रेतुं त्रिपक्षीया संविदा विहिता अस्ति। ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे नेपाल विद्युत प्राधिकरणस्य कार्यकारी निर्देशक कुलमान घिसिंग, बंगलादेशस्य बंगलादेश पावर डेवलपमेन्ट बोर्ड संस्थाया अध्यक्ष मोहम्मद रिजाउल करीम, भारतस्य नोडल एजेन्सी एनवीवीएन संस्थाया प्रमुख कार्यकारी अधिकृत रेणु नारांग च हस्ताक्षराणि विहितवन्त। ऊर्जा जलस्रोत सिंचन मंत्री दीपक खड़का, बंगलादेशस्य वन वातावरण जलवायु परिवर्तन जलस्रोत मंत्री सैयदा रिजवान हसन, द्वयोः देशयोः सर्वकारीयः उच्चाधिकारिणश्च सहभागिनः आसन्। प्राधिकरणेन भारतस्य एनवीवीएन संस्थायै विद्युत् प्रदास्यते। तया च संस्थया भारतीय संरचनाना माध्यमेन विद्युत् बंगलादेशं प्रापयिष्यते। नेपाल भारतयोर्मध्ये प्रथमान्तरदेशीय प्रसारण मार्ग माध्यमेन विद्युत निर्यातो भविष्यति। मुजफ्फरपुरत भारतस्य प्रसारण मार्ग माध्यमेन विद्युत् बंगलादेशं प्रेषयिष्यते। प्राधिकरणेन पञ्चविंशति मेगावाट क्षमतायाः त्रिशूल्याः द्वाविंशति मेगावाट क्षमतायाः चिलिमे जलविद्युदायोजनायाश्च विद्युन्निर्यातस्य पूर्वकार्यं विहितमस्ति। नेपाल भारतयोर्मध्ये पेट्रोल तैल नलिका मार्ग निर्माण सम्बद्धायां द्विपक्षीयायां संविदायां हस्ताक्षराणि सञ्जातानि सन्ति। ह्य आयोजिते कार्यक्रमे नेपाल तैल निगमस्य कार्यकारी निर्देशकेन डाक्टर चण्डिका प्रसाद भट्टेन, भारतीय तैल निगमस्य निर्देशकेन सेन्थल कुमारेण च संविदायां हस्ताक्षराणि विहितानि सन्ति। संविदायाः अनुसारेण भारतस्य सिलगुड़ी स्थानात् नेपालस्य झापा जनपदस्य चाराली स्थान पर्यन्तं 50 किलोमीटर दीर्घः पेट्रोल तैल नलिका मार्ग निर्मास्यते। एवमेव अम्लेखगंज स्थानात् चितवन जनपदस्य लोथर स्थानम् यावत् 280 किलोमीटर दीर्घा पेट्रोलियम तैल नलिका मार्ग परियोजनापि भारत सर्वकारस्य अनुदाने निर्मीयते इति ज्ञापितमस्ति। भौतिक पूर्वाधार यातायात मन्त्रालयेन गत सप्ताहे वृष्ट्याः कारणेन चतुस्त्रिंशतः राजमार्गाणां 75 शतस्थानेषु भूस्खलनेषु जातेषु चतुस्सप्तत्यधिक सप्तशतस्थानानां भूस्खलनावरोधः दूरीकृतः अस्ति इति ज्ञापितं वर्तते। मन्त्रालयेन ह्य आयोजिते पत्रकार सम्मेलने 29 राजमार्गेष् विभागानाम् अन्येषां च यन्त्रोपकरणानि जनशक्तिश्च उपयुज्य यातायात सञ्चालनं विहितमस्ति इति ज्ञापितं वर्तते। 5 प्रमुख राजमार्गाणाम् 41 स्थानेष् भूस्खलनावरोधापसारणस्य प्रयास जायमानोऽस्ति इति च मन्त्रालयेन ज्ञापितम् अस्ति। पत्रकार सम्मेलने क्षतिग्रस्तानां संरचनानां स्थायीरूपेण पुनःस्थापनाय आसन्न 25 अब्जानि रूप्यकाणि व्ययी भविष्यन्ति इति अनुमितं वर्तते इति मन्त्रालयस्य सचिवः केशव कुमार शर्मा अज्ञापयत्। बीपी राजमार्गस्य चौकीडाँडा कालढुङ्गा मार्गखण्डः भूस्खलनेन प्रवाहितोऽस्तीत्यतः विजयादशम्याः प्राक् स मार्गः पूर्णतया सञ्चालयितुं न शक्यते इति च मन्त्रालयेन ज्ञापितमस्ति। अत्रान्तरे मध्यपर्वतीय राजमार्गान्तर्गत खुर्कुच घुर्मीखण्ड ह्यस्तना दिवसात् एकपक्षीय रूपेण संचालितोऽस्ति। जलविप्लवेन भूस्खलनेन च राजमार्गस्य शताधिकेषु स्थानेषु पञ्चदिवसं यावत् मार्गावरोधे सञ्जाते आवागमनं पूर्णतया पिहितमासीत्। आराष्ट्रम जलविप्लव भूस्खलनादि प्राकृतिक विपत्सु निपतितानां सप्तदश सहस्राधिक जनानां सकुशलम् उद्धार विहितोऽस्ति। ह्यस्तन दिवसं यावत् सप्तदश सहस्राधिकानां उद्धार विहितोऽस्ति इति गृहमन्त्रालयस्य प्रवक्ता ऋषिराम तिवारी अज्ञापयत्। मन्त्रालयस्य प्रवक्ता तिवारी विपत्सु निपत्य विलुप्तानां द्वाविंशति जनानां अन्वेषण कार्यं जायमानमस्ति इति ज्ञापयन् आराष्ट्रम आहतानां एकोनसप्तत्यधिकैकशत जनानां विभिन्नेष् चिकित्सालय उपचारः जायमानोऽस्ति इति असूचयत्। गृहमन्त्रालयस्य अनुसारेण काष्ठमण्डप उपत्यकायाम् अष्टपञ्चाशदुत्तरैकशताधिक द्विसहस्र जनानां, कोशी प्रदेशे नवति जनानां, मधेश प्रदेशे पञ्चत्रिंशत् जनानां, बागमती प्रदेशे च चत्वारिंशदुत्तर षट्शताधिक त्रयोदश सहस्र जनानां उद्धारः कृतः अस्ति।